ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्त्वत आलश्रृण्वन्नोतिभिः सीदसादनम् श्रीमहागणाधिपतये नमः। अस्य श्रीरुद्रस्य प्रश्नस्य अघोरऋषिः अनुष्टुप् छन्दः सङ्कर्षणमूर्तिस्वरूपो योऽसावादित्यः परमपुरुषः स एष रुद्रो देवता अग्निक्रतुजरमायामिष्टकायागुंसतरुद्रीये जपाभिषेके विनियोगः। नमः शम्भवे च अग्निहोत्रात्मने अङ्गुष्ठाभ्याम् नमः। मयो भवे च दर्शपूर्णमासात्मने तज्जनेभ्याम् नमः। नमः शङ्कराय चातुर्मास्यात्मने मध्यमाभ्याम् नमः। मयस्कराय निरूढपशुबन्धात्मने अनामिकाभ्याम् नमः। नमः शिवाय च ज्योतिष्टोमात्मने कनिष्ठिकाभ्याम् नमः। शिवतराय च सर्वकृत्वात्मने करतलकरपृष्ठाभ्याम् नमः। नमः शम्भवे च अग्निहोत्रात्मने हृदयाय नमः। मयो भवे च दर्शपूर्णमासात्मने शिरसे स्वाहा। नमः शङ्कराय च चातुर्मास्यात्मने शिखायै वषट्। मयस्कराय च निरूढपशुबन्धात्मने कवचायहम्। नमः शिवाय च ज्योतिष्टोमात्मने नेत्रत्रयाय वौषट्। शिवतराय च सर्वकृत्वात्मने हस्त्राय फट्। भूर्भुवस्वरोमिति दिग्बन्धः ध्यानम् आपातालनभस्तलान्तभुवन ब्रह्माण्डमाभिस्फुरत्। ज्योतिष्पाटिकलिङ्गमौलिविलसत्पूर्णेन्दुवान्तामृतैः अस्तोकाप्लुतमेकमीशमनिशम् रुद्रानुवाकाञ्जपन् ध्याये दीक्षितसिद्धये ध्रुवपदम् विप्रोऽभिषिञ्चेत् शिवम्। ब्रह्माण्डम् व्याप्तदेहाभसितहिमरुचाभासमाना भुजङ्गैः कण्ठे काराः कवर्दाः कलितशशिकलाश्चण्डकोदन्नहस्राः त्र्यक्षारुद्राक्षमाला सुललितपुरुषशाम्भवामूर्तिभेदाः रुद्राश्रीरुद्रसूक्तप्रकटितविभवानः प्रयच्छन्तु सौख्यम्। ॐ नमो भगवते रुद्राय। ॐ नम् नमस्ते रुद्रमन्यव उतो दैषवे नमः। नमस्ते अस्तु धन्वने बाहुभ्यामुतते नमः। या दैषः शिवतमा शिवम् बभूवते धनुः शिवाशरव्या यातभतया न रुद्रमृडया। या ते रुद्रशिवा धनुरघोरा पापकाशिनी त्वया नस्तनुवाशन्तमया गिरिशन्ताभिजागसीः। यामिषम् गिरिशन्तहस्ते बिभर्षस्तवे शिवाङ्गिरिद्रताङ्कुरुमाहिगुंसे पुरुषम् जगत् शिवेन वचसा त्वा गिरिशाच्छा वदामसि। यथा नः सर्वमिज्जगद यक्ष्मकम् सुमना असत् अध्यवोचदधिभक्ता प्रथमो दैव्याभिषक् अहीगुश्च सर्वाञ्जम्भयन् सर्वाश्च यातु धान्यः असंयस्ताम्र अरुण उत बभ्रुः सुमङ्गलः। ये चेमाकुम् रुद्रा अभितो दीक्षुश्रिताः सहस्रशो वैशाकुम् हेण ईमहे असंयाभसर्पदिनीलग्रीभो विलोहितः उदैनम् गोपा अदृशन्नदृशन्मदहार्यः उदैनम् विश्वाभूतानि सदृष्टो मृडयादिनः नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीढुषे अधो ये अस्य सत्त्वानो हन्तेभ्यो करन्नमः प्रमञ्जधन्वनस्त्वमुभयोरात्रियोर्जाम् याश्च देहस्त इह वर्परता भगवो भवदत्यधनुष्वम् सहस्राक्षसितेषुधे निशील्यशैल्यानाम् मुखा शिवो नः सुमना भव विज्यन्धनः कपद्दिनो विशल्यो बाणवागुम्भुता अनेशन्धस्येषव आभुरस्य निषङ्गधिः या ते हे दर्मेढुष्टमहस्ते बभूवते धनुः कयास्मानुष्कतस्त्वमयक्ष्मया परिभुजा नमस्ते अस्त्वायुधायानादताय धृष्णवे उभाभ्यामुदते नमो बाहुभ्याम् नवधन्वने परिते धन्वनो हेतिरस्मान् वृणक्तुभिश्वतः अधो ययुधिस्तभारे अस्मन्निधेहितम् नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्र्यम्बकाय त्रिपुरान्तकाय त्रिकाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युञ्जयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः नमो हिरण्यवाहवेशे नान्ये दिशाम् च पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनाम् पतये नमो नमः सस्मिञ्जराय त्विषीमते पथीनाम् पतये नमो नमो बभ्रुशाय विव्याधिनेन्नानाम् पतये नमो नमो हरिकेशायोपवीतिने पुष्टानाम् पतये नमो नमो भवस्येत्यैकताम् पतये नमो नमो रुद्राय तथाविने क्षेत्राणाम् पतये नमो नमः सूताय हन्त्याय वनानाम् पतये नमो नमो रोहिताय कपतये वृक्षाणाम् पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणाम् पतये नमो नमो भवन्तये वारिवस्तुताय औषधीनाम् पतये नमो नम उच्चैर्घोषाय कन्दयते पत्तीनाम् पतये नमो नमः कृत्स्रवीताय धावते सत्त्वनाम् पतये नमः नमः सहमानाय निव्याधिन आव्याधिनीनाम् पतये नमो नमः ककुभाय निषङ्गिणे सेनानाम् पतये नमो नमो निषङ्गिण इषधिपते तस्कराणाम् पतये नमो नमो वञ्चते परिवञ्चते सायूनाम् पतये नमो नमो निजेदवे परिचरायारण्यानाम् पतये नमो नमः श्रुकामिभ्यो जिघागुम् सद्भ्योमुष्णताम् पतये नमो नमो श्रीमध्वानक्तञ्जरभ्यः प्रगुन्दानाम् पतये नमो नम उष्णीषिणे गिरिजराय कुलुञ्चानाम् पतये नमो नम विश्वमध्वानन्वामिभ्यश्च वो नमो नम आतङ्गाणेभ्यः प्रतितधानेभ्यश्च वो नमो नम आयच्छद्भ्यो विसृजभ्यश्च वो नमो नमोऽस्यभ्यो विद्यद्भ्यश्च वो नमो नम आसीरेभ्यश्च यानेभ्यश्च वो नमो नमः स्वपद्भ्यो जाग्रभ्यश्च वो नमो नमस्तिष्ठद्भ्यो धावद्भ्यश्च वो नमो नमः सभाभ्यः सभावतिभ्यश्च वो नमो नमो अश्वेभ्योऽश्वपदिभ्यश्च वो नमः नम आव्याधिनेभ्यो विविध्यन्तेभ्यश्च वो नमो नम उगणाभ्यस्तृगुम्भतेभ्यश्च वो नमो नम वृत्सेभ्यो वृत्सपदिभ्यश्च वो नमो नमो व्रातेभ्यो व्रातपदिभ्यश्च वो नमो नमो गणेभ्यो गणपदिभ्यश्च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमो महद्भ्यः क्षुल्लकेभ्यश्च वो नमो नमो रथिभ्यो रथेभ्यश्च वो नमो नमो रथेभ्यो रथपदिभ्यश्च वो नमो नमस्येनाभ्यश्चेनानिभ्यश्च वो नमो नमः क्षत्रुभ्यः सङ्ग्रहीतृभ्यश्च वो नमो नमस्तक्षभ्योऽर्धकारेभ्यश्च वो नमो नमः कुलालेभ्यः कर्मारेभ्यश्च वो नमो नमः पुञ्जिष्ठेभ्यो निधारेभ्यश्च वो नमो नम इषकृद्भ्यो धन्वकृद्भ्यश्च वो नमो नम मृगयुभ्यः शनिभ्यश्च वो नमो नमस्वभ्यश्चमदिभ्यश्च वो नमः नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च नमो नीलग्रीवाय च सिद्धिकण्ठाय च नमः प्रवर्तिनेयं युक्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशाय च शिभिष्टाय च नमो मेधुष्टमाय च शुमते च नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षीयते च नमो वृद्धाय च संवर्धने च नमो अग्र्याय च प्रथमाय च नम आशवे चाजिराय च नमः शीघ्रियाय च शीभ्याय च नमः ऊन्याय चावस्वन्याय च नमः स्रोतस्याय च दीप्याय च नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय चापरजाय च नमो मध्यमाय चापगल्भाय च नमो जघन्याय च बुद्ध्याय च नमः श्रोभ्याय च प्रतिसर्याय च नमो याम्याय च क्षेम्याय च नमो उर्भर्याय च खल्याय च नमः श्रोत्याय चापधान्याय च नमो वन्याय च कक्षाय च नमः श्रमाय च प्रतिश्रमाय च नमः आशुषेणाय चाशुरथाय च नमः शूराय चामभिन्नते च नमो भर्मिले च वरोधिने च नमो बिल्मिले च कवचिले च नमः श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय च हनन्याय च नमो धृष्णवे च प्रमृषाय च नमो धूताय च प्रहिताय च नमो निषङ्गिणे च शुधिमते च नमस्तीक्ष्णेधवेरायुधिने च नमः स्वायुधाय च सुधन्वने च नमः श्रुत्याय च पच्छाय च नमः काट्याय च नीत्याय च नमः सूद्याय च सरस्याय च नमो नाद्याय च वैशन्ताय च नमः कूप्याय च भक्ष्याय च नमो वर्ष्याय च भर्ष्याय च नमो मेघ्याय च विद्युत्याय च नम ईद्रियाय च तप्याय च नमो वात्याय च रेश्मियाय च नमो वास्तव्याय च वास्तुराय च नमः सोमाय च रुद्राय च नमस्ताम्राय चारुणाय च नमः शृङ्गाय च पशुपतये च नमः उग्राय च भीमाय च नमो अग्रेवधाय च दूरेवधाय च नमो अन्ध्रे च हनीयसे च नमो वृक्षेभ्यो हरिवेषेभ्यो नमस्ताराय नमः शम्भवे च मयोभवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च नमस्तीक्षाय च कूर्याय च नमः य भार्याय च नमः प्रतरणाय चोत्तरणाय च नमः आधार्याय चालाद्याय च नमः शिष्प्याय च भेण्याय च नमस्य गत्याय च प्रवाह्याय च नम हिरण्याय च प्रबध्याय च नमः कृगंशिलाय च क्षयणाय च नमः कवर्दिने च पुलस्तये च नमो गोष्ठ्याय च गुह्याय च नमः स्तल्प्याय च गेष्ठ्याय च नमः कार्याय च गह्वरेष्ठाय च नमो आर्तलय्याय च निवेष्ट्याय च नमः पागंसव्याय च रजस्याय च नमः शुष्क्याय च हरित्याय च नमो लोप्याय च लभ्याय च नमः ऊर्व्याय च शून्याय च नमः पन्याय च वन्नसज्जाय च नमोपकरमाणाय चाभिघ्नते च नम आख्यदते च प्रक्षिदते च नमोभ्यो देवानागम् हृदयेभ्यो नमो विक्षीणकेभ्यो नमो विजन्धत्केभ्यो नम आनिर्हतेभ्यो नम आमीभक्तेभ्यः द्रापे अन्धसत्पते दरिद्रन्नीलोहिता येषाम् वरुषाणामेषाम् वशूनाम् माभेर्मा रोमो येषाम् किञ्चन मम याते रुद्रशिवातनो शिवाभिश्वाह भेषजी शिवा रुद्रस्य भेषजी तया नामृजीवसे इमागुम् रुद्राय तमसे कभद्युने क्षयद्वीराय प्रभामहे मद्यम् यथा नश्यमसद्विपदे चतुष्पदे विश्वम् पुष्टम् ग्रामे अस्मिन्ननातुरम् मृणानारुद्रोतनामयस्कृधिक्षयद्वीराय नमसा विधेमते यच्छञ्जयाश्च मनुरायजे पिता तदस्यामतव रुद्रप्रणीतौ मानो महान्तमुदमानो अर्भकम् मानमुक्षरन्तमुदमानमुक्षितम् मानो भयेः पितरम् वोत मातरम् प्रियामानस्तनुवो रुद्ररीरिषः मानसोकेतन ये मान आयुषमानो गोषमानो अस्येषु वीरिषः वीरान्मानो रुद्रभामिवधेर्हविष्मन्तो नमसा विधेमते आराप्ते गोघ्न उत पूरुषघ्ने क्षयद्वीराय सुम्रमस्मेते अस्तु रक्षाजनोऽधिजदेव ब्रूह्यथा च नः शर्म यच्छद्विवर्हाः स्तुहि श्रुतम् कर्तसदम् युवानम् मृगन्न भीममुपहर्तुमुग्रम् मृडाय हृद्रे रुद्रस्तवानो अन्यन्ते अस्मन्निव बन्धुसेनाः परिणो रुद्रस्य हेतुर्वृणक्त्वपरिद्वेषस्य दुर्मतिरघायोः अवस्थिरामघवध्यस्तनुष्वमीढ्वस्तोकायतनयाय मृडया मीढुष्टमशिवतमशिवो नः सुमना भव परमे वृक्ष आयुधम् निधाय कृत्यम् वसानाजरपि नाकम् बिभ्रदागहि विकिरिदविलोहित नमस्ते अस्तु भगवः यास्ते सहस्रगुम् हेतयोऽन्यमस्मन्निपपन्तुताः सहस्राणि सहस्रधा बाहुवास्तव हेतयः तासामीशा न भगवः पराचीनामुखाकृधि सहस्राणि सहस्रजो ये रुद्राधिभूम्याम् तेषागुम् सहस्रयो जने मधन्वानि तन्मसि अस्मिन्महत्यह्नवेऽन्तरिक्षे भव अधि नीलग्रीवास्य दिकण्ठाः सर्वा अधः क्षमाचराः नीलग्रीवास्य दिकण्ठादिवकम् रुद्रागुपश्रिताः ये वृक्षेषु सस्पिञ्जरा नीलग्रीवा विलोहिताः ये भूतानामधिपतया विशिधासः कभर्दिनः ये अन्येषु विविध्यन्ति पात्रेषु पिबतो जनान् ये पथाम्बधिरक्षय ऐलभृदायव्युधः ये तीर्थानि प्रचलन्ति सुगावन्तानि शङ्गिणः य एतावन्तश्च भूयागुंसश्च दिशो रुद्राविदस्थिरे तेषागुम् सहस्रयो जनेवधन्वानि तन्मसि नमो रुद्रेभ्यो ये पृथिव्याम् येऽन्तरिक्षे ये दिवि येषामन्नम् वातो वर्षमिषभस्तेभ्यो दश प्राचेर्दश दक्षिणा दश प्रदेचेर्दशो देचेर्दशोऽर्ध्वास्तेभ्यो नमस्ते नो मृळयन्तेयम् विष्मायश्च नो द्वेष्टितम् भोजम् भेदधामि वयम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् पूर्वारुगमिव बन्धनान् भृत्योर्मुक्षीयमामृतात् यो रुद्रो अग्नौ यो अप्सु य ओषधीषु यो रुद्रो विश्वाभुवना विवेश तस्मै रुद्राय नमो अस्तु एते सहस्रमयुतम् पाशामृत्योमर्त्याय हन्तवे तान् यज्ञस्य मायया सर्वानवयजामहे मृत्यभे स्वाहा मृत्यभे स्वाहा प्राणानाम् ग्रन्थिरसि रुद्रो मा विशान्तकः एनान्नेनाप्यायस्व नमो रुद्राय विष्णवे मृत्युर्मे पाहि ॐ शान्तिश्शान्तिश्शान्तिः विष्णो सजाषसेवावर्धन्तु वाङ्गिरः जुम्नैर्वाजेभिरागतम् वाजश्च मे प्रसवश्च मे प्रयतिश्च मे प्रसृतिश्च मे धीतिश्च मे क्रतुश्च मे स्वरश्च मे श्लोकश्च मे श्रावश्च मे श्रुतिश्च मे ज्योतिश्च मे शुभश्च मे प्राणश्च मे बाणश्च मे व्यानश्च मे सुश्च मे चित्तम् च माधीतम् च मे वाक्च मे मनश्च मे चक्षुश्च मे श्रोत्रम् च मे दक्षश्च मे बलम् च मवोजश्च मे सहश्च मायुश्च मे जरा च मात्मा च मे धनोश्च मे जन्म च मे ङ्गानि च मे स्थानि च मे भरोगुंषि च मे शरीराणि च मे ज्येष्ठञ्च माधिपत्यञ्च मे मन्यश्च मे भामश्च मे मश्च मेऽम्भश्च मे देवा च मे महिमा च मे वरिमा च मे प्रथिमा च मे भर्ष्मा च मे द्राघ्या च मे वृद्धञ्च मे वृद्धिश्च मे भक्तिञ्च मे श्रद्धा च मे जगच्च मे धनञ्च मे वशश्च मे त्विषश्च मे क्रीडा च मे मोदश्च मे जातञ्च मे जनिष्यमाणञ्च मे सूक्तञ्च मे सुहृदञ्च मे वित्तञ्च मे वेद्यञ्च मे भूतञ्च मे भविष्यच्च मे सुगञ्च मे सुमधञ्च मध्यञ्च मध्यश्च मे क्लुप्तञ्च मे क्लुप्तिश्च मे मतिश्च मे सुमतिश्च मे सृञ्ज मे मयश्च मे प्रियञ्च मेऽनुकामश्च मे कामश्च मे सौमनसश्च मे भद्रञ्च मे श्रेयश्च मे वश्यश्च मे यशश्च मे भगश्च मे द्रविणञ्च मे यन्ता च मे धत्ता च मे क्षेमश्च मे धृतिश्च मे विश्वञ्च मे महश्च मे संविच्च मे ज्ञात्रञ्च मे सोश्च मे प्रसोश्च मे क्षीरञ्च मे लयश्च मरुदञ्च मे मृदञ्च मे यक्ष्मञ्च मे रामयुज्य मे जीवादुश्च मे दीर्घायुत्वञ्च मे मित्रञ्च मे भयञ्च मे सुखञ्च मे शयनञ्च मे सोषाय मे सुदृढञ्च मे ऊर्च मे सौनृता च मे पयश्च मे रसश्च मे घृतञ्च मे मधु च मे सद्भिश्च मे सपेतिश्च मे कृषिश्च मे वृष्टिश्च मे जैत्रञ्च माौद्भिर्जञ्च मे रजश्च मे राजश्च मे पुष्टञ्च मे पुष्टिश्च मे विभुज मे प्रभुज मे बहुज मे भोजश्च मे पूर्णञ्च मे पूर्णतरञ्च मे क्षयश्च मे कूजवाश्च मे अन्नञ्च मे क्षुच्च मे व्रीहयश्च मे जवाश्च मे माषाश्च मे तिलाश्च मे मुद्गाश्च मे खल्वाश्च मे गोधूमाश्च मे मधुराश्च मे प्रियङ्गवश्च मे नवश्च मे श्यामाकाश्च मे निवाराश्च मे अस्माच मे मृत्तिका च मे गरयश्च मे पर्वताश्च मे शिखराश्च मे वनस्पतयश्च मे हिरण्यञ्च मे यश्च मे शीलञ्च मे त्रपश्च मे श्यामञ्च मे लोहञ्च मेऽग्निश्च आपश्च मे विरुधश्च मोषधयश्च मे कृष्णभच्यञ्च मे कृष्णभच्यञ्च मे ग्राम्याश्च मे पशव आरण्याश्च यज्ञेन कल्पन्ताम् वित्तञ्च मे वृत्तिश्च मे भूतञ्च मे भूतिश्च मे वसु च मे वसतिश्च मे कम्म च मे शक्तिश्च मेऽर्धश्च मयेमश्च मयितिश्च मे गतिश्च मे अग्निश्च म इन्द्रश्च मे सोमश्च म इन्द्रश्च मे सविता च म इन्द्रश्च मे सरस्वती च म इन्द्रश्च मे पूषा च म इन्द्रश्च मे बृहस्पतिश्च म इन्द्रश्च मे मित्रश्च म इन्द्रश्च मे वरुणश्च म इन्द्रश्च मे त्वष्टा च म इन्द्रश्च मे धाता च म इन्द्रश्च मे विश्वश्च म इन्द्रश्च मे स्वरौ च म इन्द्रश्च मे मरुतश्च म इन्द्रश्च मे विश्वे च मे देवा इन्द्रश्च मे पृथिवी च म इन्द्रश्च मेऽन्तरिक्षञ्च म इन्द्रश्च मे द्यौश्च म इन्द्रश्च मे दिशश्च म इन्द्रश्च मे मूर्धा च म इन्द्रश्च मे प्रजापतिश्च म इन्द्रश्च मे अगुंसुश्च मे रश्मिश्च मे दाभ्यश्च मेधिपतिश्च म उपागुंसुश्च मेऽन्तर्यामश्च म इन्द्रमायमश्च मे मैत्रावरुणश्च माश्रिणश्च मे प्रस्थानश्च मे शुक्रश्च मे मन्धीर म आग्रजणश्च मे वैश्वदेवश्च मे धृवश्च मे वैश्वानरश्च मरुद्ग्रहाश्च मे जिग्राह्याश्च म इन्द्राग्नश्च मे वैश्वदेवश्च मे मरुत्वदीयाश्च मे माहेन्द्रश्च म आदित्यश्च मे सावित्रश्च मे सारस्वतश्च मे पौष्णश्च मे पात्रीपदश्च मे हारीयोजनश्च मे युद्धश्च मे बर्हिश्च मे वेदिश्च मे धिष्णयाश्च मे सृजश्च मे जमदाश्च मे ग्रावाणश्च मे स्वरवश्च मौवरवाश्च मे धिषवणे च मे द्रोणकलशश्च मे वायुव्यानि च मे भूतभृत्य म आधवनीयश्च महाग्नेर्धम् च मे हविर्धानम् च मे गृहाश्च मे सदश्च मे पुरोणाशाश्च मे वजनाश्च मे वृधश्च मे स्वगाकारश्च मे अग्निश्च मे घर्मश्च मेऽर्कश्च मे सूर्यश्च मे प्राणश्च मे स्वमेधश्च मे पृथिवी च मे दिदिश्च मे दिदिश्च मे जौश्च मे शक्वरीरङ्गुलयोभिषश्च मे यज्ञेन कल्पन्तामृक्च मे साम च मे स्वामश्च मे ययुश्च मे दीक्षा च मे तपश्च मरुतश्च मे व्रतञ्च मे होरात्रयोर्वृष्या बृहद्रथं नरे च मे यज्ञेन कल्पेताम्
గర్భాశ్చ మే వత్సాశ్చ మే త్రయవిశ్చ మే త్రయవీచ మే దిత్య వాచ మే దిత్య ఊహీచ మే
పంచావిశ్చ మే
పంచావీచ మే త్రివత్సశ్చ మే త్రివత్సాచ మే తుర్యవాచ మే తుర్యౌహీచ మే పష్టవాచ మే పష్టౌహీచ మముక్షాచ మే వశాచ మర్షభశ్చ మే వేహశ్చ మే లడ్వాంచ మే ధేనుశ్చ మహాయజ్ఞేన కల్పతాం
ప్రాణయజ్ఞేన కల్పతాం
అపానయజ్ఞేన కల్పతాం జ్ఞానయజ్ఞేన కల్పతాం చక్షుర్యజ్ఞేన కల్పతాం శ్రోత్రం యజ్ఞేన కల్పతాం మనోయజ్ఞేన కల్పతాం వాగ్యజ్ఞేన కల్పతాం మహాత్మయజ్ఞేన కల్పతాం యజ్ఞయజ్ఞేన కల్పతాం ఏకాచ మే తిస్రస్య మే పంచచ మే సప్తచ మే నవచ మే ఏకాదశ చ మే త్రయోదశ చ మే పంచదశ చ మే సప్తదశ చ మే నవదశ చ మే ఏకవిగుంశతిశ్చ మే త్రయోవిగుంశతిశ్చ మే పంచవిగుంశతిశ్చ మే సప్తవిగుంశతిశ్చ మే నవవిగుంశతిశ్చ మే ఏకత్రిగుంశతిశ్చ మే త్రయస్త్రిగుంశతిశ్చ మే చతుస్రస్య మే అష్టౌచ మే ద్వాదశ చ మే షోడశ చ మే విగుంశతిశ్చ మే చతుర్విగుంశతిశ్చ మే అష్టావిగుంశతిశ్చ మే ద్వాత్రిగుంశతిశ్చ మే షట్త్రిగుంశ మే చత్వారిగుంశ్చ మే చతుశ్చత్వారిగుంశ్చ మేష్టాచత్వారిగుంశ్చ మే వాజశ్చ ప్రథమశ్చాపితశ్చ క్రతుశ్చ సమశ్చ మూర్ధాయశ్చాంతాయనశ్చాంతశ్చ భౌవనశ్చ భువనశ్చాధిపతిశ్చ ఇరాదేవోర్మనర్యజ్ఞనేర్బృహస్పతిర్థామదానిషద్విశ్వే దేవాస్వోగ్రవాజః పృథివీమాయుంశేర్మధుమనిష్యే మధు జనిష్యే మధు వక్ష్యామి మధుమనిష్యామి మధుమదేం దేవేభ్యోవాచముద్యాగంశుశ్రోషేణ్యాం మనుష్యేభ్యః సంవా దేవావంతు శోభాయై పితరో నమః నమో ఓం శాంతి శాంతి శాంతిః.
హిరణ్యవర్ణాం హరిణీం సువర్ణరజతస్రజాం చంద్రాం హిరణ్మయీం లక్ష్మీం జాతవేదో మమావహ తాం మహావహ జాతవేదో లక్ష్మీమనపగామినీం యస్యాం హిరణ్యం విందేయం గామశ్వం పురుషానహం అశ్వపూర్వాం రథమధ్యాం హస్తినాద ప్రబోధినీం శ్రియం దేవీముపహ్వయే శ్రీర్మా దేవీర్జుషతాం కాంసోస్మితాం హిరణ్యప్రాకారమాద్రాంజులందీం వృత్తాం తర్పయంతీం పద్మే స్థితాం పద్మవన్నాం తామిహోపహ్వయే శ్రియం చంద్రాం ప్రభాషాంజసా జ్వలంతీం శ్రియం లోకే దేవజుష్టాముదారాం తాం పద్మినీమీం శరణమహం ప్రవద్యే లక్ష్మీర్మే నశ్యతాం త్వాం వృణే ఆదిత్యవర్ణే తపసోధిజాతో వనస్పతిస్తవ వృక్షోధ బిల్వః తస్య ఫలాని తపసానుదంతు మాయాంతరాయాశ్చ బాహ్యా అలక్ష్మీ ఉపైతు మాం దేవ సఖః కీర్తిశ్చ మణినా సహ ప్రాదుర్భూతోస్మి రాష్ట్రేస్మిన్ కీర్తిముద్భిం దదాతు మే శుద్ధిపాదామరాం జ్యేష్ఠామలక్ష్మీర్నాశయామ్యహం అభూతిమసమర్థించ సర్వాణి నిర్ణదమే గృహాన్ గంధద్వారాన్ దురాధర్షాన్ నిత్యపుష్టాం కరీషిణీం ఈశ్వరీకం సర్వభూతానాం తామిహోపహ్వయే శ్రియం మనసకామమాకోటిం వాచః సత్యమధీమహే పశూనాకం రూపమన్నస్య మహిశ్రీశ్రయతాం యశః కర్దమేన ప్రజాభూతా మయి సంభవ కర్దమా శ్రియం వాసయ మే కులే మాతరం పద్మమాలినీం ఆపస్రజంతు స్నిగ్ధాని చిక్లీతవ సమే గృహే నిజదేవీం మాతరం ద్వజం వాసయ మే కులే ఆద్రాం పుష్కరిణీం పుష్ప్యం సువర్ణాం హేమమాలినీం సూర్యాం హిరణ్మయీం లక్ష్మీం జాతవేదో మమావహ ఆర్ద్రాం యఃకరిణీం జ్యేష్ఠిం పింగళాం పద్మమాలినీం चन्द्राम् हिरण्मयीम् लक्ष्मीम् जातवेदो ममावह ताम् मावह जातवेदो लक्ष्मीमनपगामिनीम् यस्याम् हिरण्यम् प्रभूतम् गावो दास्योऽस्मान् विन्देयम् पुरुषानहम् यश्रियः प्रयदा भूत्वा जुहुयादाद्यमन्महम् श्रियः पञ्चदशर्जञ्ज श्रीकामस्ततदञ्जपेद आनन्दः कर्दमश्चैव चिक्लेत इति विश्रुताः ऋषयस्ते त्रयः पुत्राः स्वयम् श्रीदेवदेवता पद्मानने पद्मभूरो पद्माक्षी पद्मशम्भवे त्वम्भयस्य पद्माक्षी येन सौख्यम् लभाम्यहम् अश्वदायि च गोदायि हनधायि महाधने धनम् मे जुषदाम् देवीम् सर्वकामार्थसिद्धये पुत्रपौत्रधनम् धान्यम् हस्तस्वाजाभिगोरथम् प्रजानाम् भवसि माता आयुष्मन्तम् करोतु माम् चन्द्राभाल्लक्ष्मीमीशानाम् सूर्याभाम् श्रियमेश्वरीम् चन्द्रसूर्याग्निसर्वाभाम् श्रीमहालक्ष्मीमुपास्महे धनमग्निर्धनम् वायुर्धनम् सूर्यो धनम् वसुः धनमिन्द्रो बृहस्पतिर्वरुणम् धनमश्नुते वैरदेय सोमम् पिब सोमम् पिबतु वृत्रः सोमम् धनस्य सोमिनो मह्यम् ददातु सोमिनी न क्रोधो न जमात्सर्यम् न लोभो नाशुभामतिः भवन्ति कृतपुण्यानाम् भक्तानाम् श्रीसोक्तम् जपेत् सदा वर्षम् सुदेवि भावरिदिवो अभ्रस्य विद्युतः ोऽहम् तु सर्वबीजान्यपब्रह्मद्विषोदिः पद्मप्रिये पद्मनि पद्महस्ते पद्मालये पद्मदलायताक्षे विश्वप्रिये विष्णुमनोनुकूले त्वत्पादपद्मम् महिषम् निधत्स्व यासा पद्मासनस्था विमलगटितटे पद्मपत्रायताक्षे गम्भीरावर्तनाभिस्तनभरणमिता शुभ्रवस्त्रोत्तरीया लक्ष्मीर्दिव्यैर्गजेन्द्रैर्मणिगणखचितैस्माभिलाहेवरुम्भैः नित्यम् सा पद्महस्ता मम वसतु गृहे सर्वमाङ्गल्ययुक्ता लक्ष्मीम् क्षीरसमुद्रराजतलयाम् श्रीरङ्गधामेश्वरीम् दासीभूतसमस्तदेववलिताम् लोकैकदीपाङ्कुराम् श्रीमन्मन्दकटाक्षलब्धविभवब्रह्मेन्द्रगङ्गाधराम् त्वाम् त्रैलोक्यकुटुम्बिनीम् सरसिजाम् वन्दे मुकुन्दप्रियाम् शुद्धलक्ष्मेर्मोक्षलक्ष्मेर्जयलक्ष्मीः सरस्वते श्रीलक्ष्मेर्वरलक्ष्मीश्च प्रसन्ना मम सर्वदा पराङ्कुशोपाशमभीतिमुद्राङ्करैर्वहन्तीम् कमलासनस्ताम् बालार्ककोटिप्रतिभान् त्रिनेत्राम् भजेऽहमम्बाम् जगदीश्वरीन्द्राम् सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके शरण्ये त्र्यम्बके देवि नारायणि नमोऽस्तु ते महालक्ष्मी च विद्महे विष्णुपत्नी च धीमहि तन्नो लक्ष्मीः प्रचोदयात् ॐ धाता पुरस्ताद्यमुदा जहार शक्रः प्रविद्वान् प्रतिशस्यतस्रः तमेवम् विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते सहस्रशीर्षम् देवम् विश्वाक्षम् विश्वशम्भुवम् विश्वन्नारायणम् देवमक्षरम् परमम् पदम् विश्वतः परमान्नित्यम् विश्वन्नारायणकुम्भरिम् विश्वमेवेदम् पुरुषस्तद्विश्वमुपजीवति पतिम् विश्वस्यात्मेश्वरगुम् शाश्वतगुम् शिवमच्युतम् नारायणम् महाज्ञेयम् विश्वात्मानम् परायणम् नारायणपरो ज्योतिरात्मा नारायणः परः नारायणपरम् ब्रह्मतत्त्वम् नारायणः परः नारायणपरो ध्याता ध्यानम् नारायणः परः यच्च किञ्चिज्जगत्सर्वम् दृश्यते श्रूयतेऽपि वा अन्तर्बहिश्च तत्सर्वम् व्याप्य नारायणस्थितः अनन्तमव्ययम् कविगुम् समुद्रेन्दम् विश्वशम्भवम् पद्मकोशप्रतीकाशगुम् हृदयम् चाप्यधोमुखम् अधो निश्याविदस्यान्देनाभ्यामुपरितिष्ठति ज्वालमालाकुलम् भाति विश्वस्यायतनम् महत् सन्ततगम् शिलाभिस्तुलम् वत्याकोशसन्निभम् तस्यान्ते सुशिरगम् सूक्ष्मम् तस्मिन् सर्वम् प्रतिष्ठितम् तस्य मध्ये महानग्निर्विश्वार्चिर्विश्वतो मुखः सोऽग्रभग्विभजम् तिष्ठन्नाहारमजरः कविः तिर्ययोर्ध्वमधशायैरश्मयस्वस्य सन्तता सन्तापयति स्वम् देहमापादतलमस्थगः तस्य मध्ये वह्निशिखा अणीयोऽध्वाव्यवस्थितः नीलतो यदमध्यस्ताद्विज्युल्लेखे बभास्वरा नीवारशोकवद्धन्वीपीताभा स्वच्छणोपमा तस्याशिखाया मध्ये परमात्मा व्यवस्थितः सब्रह्म सदिवः सहरिष्येन्द्रः स्वाक्षरः परमस्वरा योपाम्बुष्पम् वेद पुष्पवान् प्रजावान् पशुवान् भवति चन्द्रमा वा अपाम्बुष्पम् पुष्पवान् प्रजावान् पशुवान् भवति य एवम् वेद योपामायतनम् वेद आयतनवान् भवति अग्निर्वा अपामायतनम् आयतनवान् भवति योऽग्नेरायतनम् वेद आयतनवान् भवति आपो वा अग्नेरायतनम् आयतनवान् भवति य एवम् वेद योऽपामायतनम् वेद आयतनवान् भवति वायुर्वा अपामायतनम् आयतनवान् भवति यो वायोरायतनम् वेद आयतनवान् भवति आपो वै वायोरायतनम् आयतनवान् भवति य एवम् वेद योऽपामायतनम् वेद आयतनवान् भवति असौ वै तपन्नपामायतनम् आयतनवान् भवति योऽमश्यतपद आयतनम् वेद आयतनवान् भवति आपो वा अमश्यतपद आयतनम् आयतनवान् भवति य एवम् वेद योऽपामायतनम् वेद आयतनवान् भवति चन्द्रमा वा अपामायतनम् आयतनवान् भवति यश्चन्द्रमस आयतनम् वेद आयतनवान् भवति आपो वै चन्द्रमस आयतनम् आयतनवान् भवति य एवम् वेद योऽपामायतनम् वेद आयतनवान् भवति नक्षत्राणि वा अपामायतनम् आयतनवान् भवति यो नक्षत्राणामायतनम् वेद आयतनवान् भवति
आपो वै नक्षत्राणामायतनम् आयतनवान् भवति य एवम् वेद यो वामायतनम् वेद आयतनवान् भवति पर्जन्यो वा अपामायतनम् आयतनवान् भवति यः पर्जन्यस्यायतनम् वेद आयतनवान् भवति आपो वै पर्जन्यस्यायतनम् आयतनवान् भवति य एवम् वेद यो वामायतनम् वेद आयतनवान् भवति संवत्सरो वा अपामायतनम् आयतनवान् भवति यः संवत्सरस्यायतनम् वेद आयतनवान् भवति आपो वै संवत्सरस्यायतनम् आयतनवान् भवति य एवम् वेद योऽप्सुनाभम् प्रतिष्ठिताम् वेद प्रत्येव तिष्ठति किम् तद्विष्णोर्बलमाहुः कादीर्तिः किम् परायणम् एको यद्धारयद्देवः वेजति रोदसी उभे वाताद्विष्णोर्बलमाहुः अक्षराद्दीप्तिरुच्यते कृपणाद्धारयद्देवः यद्विष्णोरेकमुत्तमम् राजाधिराजाय प्रसह्यसाहिने नमो वयम् वै श्रवणाय कुर्महे सभे कामान् कामकामाय मह्यम् कामेश्वरो वै श्रवणो ददातो कुबेराय वै श्रवणाय महाराजाय नमः ॐ तद्ब्रह्मा ॐ तद्वायोः ॐ तदात्मा ॐ तत्सत्यम् ॐ तत्सर्वम् ॐ तत्पुरोर्नमः अन्नश्चरदिभूतेषु गुहायाम् विश्वमूर्तिषु त्वम् यज्ञस्त्वम् वषट्कालस्त्वमिन्द्रस्त्वगम् रुद्रस्त्वम् विष्णुस्त्वम् ब्रह्म त्वम् प्रजापतिः त्वम् तदापहाभोज्योतिरसौरुहम् ब्रह्म भूर्भुवः सुभरो अथैतम् विष्णवे चरम् निर्वपति यज्ञो वै विष्णुः यज्ञ एवान्ततः प्रतिष्ठति स्तोत्रयोगे विष्णवे स्वाहा यज्ञाय स्वाहा प्रतिष्ठायै स्वाहेति नारायणाय विद्महे वासुदेवाय धीमहि तन्नो विष्णुः प्रचोदयात् तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रः प्रचोदयात् ईशानः सर्वविद्यानामीश्वरः सर्वभूतानाम् ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिर्ब्रह्मा शिवो मे अस्तु सदा शिवो लक्ष्मीम् क्षीरसमुद्रराजतनयाम् श्रीरङ्गधामेश्वरीम् दासीभूतसमस्तदेववनिताम् लोकैकदीपाङ्कुराम् श्रीमन्मन्दकटाक्षलब्धविभवद्ब्रह्मेन्द्रगङ्गाधराम् त्वाम् त्रैलोक्यकुटुम्बिनीम् सरसिजाम् वन्दे मुकुन्दप्रियाम् शुद्धलक्ष्मीर्मोक्षलक्ष्मीर्जयलक्ष्मी सरस्वती श्रीलक्ष्मीर्वरलक्ष्मीश्च प्रसन्ना मम सर्वदा वराङ्कुशोपाशमभीतिमुद्राङ्करैर्वहन्तीम् कमलासनस्ताम् बालार्ककोटिप्रतिभाम् त्रिनेताम् भजेऽहमम्बाम् जगदीश्वरीणाम् सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके
हिरण्ये त्र्यम्बके देवि नारायणि नमोऽस्तुते महालक्ष्मी च विद्महे विष्णुपत्नी च धीमहि तन्नो लक्ष्मीः प्रचोदयात् ॐ निधनपतये नमः निधनपदान्तिकाय नमः ऊर्ध्वाय नमः ऊर्ध्वलिङ्गाय नमः हिरण्याय नमः हिरण्यलिङ्गाय नमः सुवर्णाय नमः सुवर्णलिङ्गाय नमः दिव्याय नमः दिव्यलिङ्गाय नमः भवाय नमः भवलिङ्गाय नमः शर्वाय नमः शर्वलिङ्गाय नमः शिवाय नमः शिवलिङ्गाय नमः ज्वलाय नमः ज्वललिङ्गाय नमः आत्माय नमः आत्मलिङ्गाय नमः परमाय नमः परमलिङ्गाय नमः एतत्सोमस्य सूर्यस्य सर्वलिङ्गगोस्थापयति पाणिमन्त्रम् पवित्रम् सद्यो जातम् प्रवद्यामि सद्यो जाताय वै नमो नमः भवे भवेनादि भवे भवः स्वमाम् भवोद्भवाय नमः वामदेवाय नमो ज्येष्ठाय नमः श्रेष्ठाय नमो रुद्राय नमः कालाय नमः कलविकरणाय नमो बलविकरणाय नमो बलाय नमो बलप्रमथनाय नमः सर्वभूतदमनाय नमो ममोन्मनाय नमः अघोरेभ्यो सघोरेभ्यो घोरघोरधरेभ्यः सर्वेभ्यः सर्वशिर्वेभ्यो नमस्ते अस्तु रुद्ररूपेभ्यः तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रः प्रचोदयात् ईशानः सर्वविद्यानामीश्वरः सर्वभूतानाम् ब्रह्माधिपतिर्ब्रह्मणाधिपतिर्ब्रह्मा शिवो मे अस्तु सदाशिवो पुरुषस्य विद्मसहस्राक्षस्य महादेवस्य धीमहि तन्नो रुद्रः प्रचोदयात् तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रः प्रचोदयात् तत्पुरुषाय विद्महे वक्रतुण्डाय धीमहि तन्नो दन्त्यः प्रचोदयात् तत्पुरुषाय विद्महे चक्रतुण्डाय धीमहि तन्नो नन्द्यः प्रचोदयात् तत्पुरुषाय विद्महे महासेनाय धीमहि तन्नः षण्मुखः प्रचोदयात् तत्पुरुषाय विद्महे सुवर्णपक्षाय धीमहि तन्नो गरुडः प्रचोदयात् वेदात्मनाय विद्महे हिरण्यगर्भाय धीमहि तन्नो ब्रह्म प्रचोदयात् नारायणाय विद्महे वासुदेवाय धीमहि तन्नो विष्णुः प्रचोदयात् वज्रनखाय विद्महे तीक्ष्णदग्गुष्ट्राय धीमहि तन्नो नारदिगुम्हः प्रचोदयात् भास्कराय विद्महे महद्युतिकराय धीमहि तन्नो आदित्यः प्रचोदयात् वैश्वानराय विद्महे लालीलाय धीमहि तन्नो अग्निः प्रचोदयात् कात्यायनाय विद्महे कन्याकुमारि धीमहि तन्नो दुर्गः प्रचोदयात् ॐ
ब्राह्मणेभ्यः शुभमस्तु नित्यम् लोकाः समस्ताः सुखिनो भवन्तु काले वर्षतु पर्जन्यः पृथिवी सस्यशालिनी देशोऽयम् क्षोभरहितः ब्राह्मणाः सन्तु निर्भयाः अपुत्राः पुत्रिणः सन्तु पुत्रिणः सन्तु पौत्रिणः अधनाः सधनाः सन्तु जीवन्तु जनताम् शतम् ॐ शान्ति शान्ति शान्तिः सर्वे जनाः सुखिनो भवन्तु हरिः ॐ।